प्ररुभ्यो दूतमिभवाच मिष्य उपस्थिरेष्वैतरेन्धेनुमीळे ये वात ज्योतास्तरणिभिरेवैः परिद्याम् सद्यो अपसो बभूवः यदारमक्रन् रभवः पितृभ्याम् परिविष्टिवेषणा दंसनाभिः आदिद्देवानामुपसख्यमा जन्धीरा सः पुष्टिमवहन्मनायै पुनर्ये चक्रुः पितराजुवा नासनायोपेव जरणाशयाना देवाजो विभ्राङ्गृभुरिन्द्रवन्तो मधुप्सरसो नो वन्तयज्ञम् यत्संवत्समृभवो गामरक्षन् यत्संवत्समृभवो मा अपिंशन् यत्संवत्समभरन् भासो अस्यास्ताभिश्यमीभिरमृतत्वमाशुः ज्येष्ठ आह चमसा द्वाकरेति कनीजान्त्रेऽन्कृणवामेत्याह कनिष्ठ आह चतुरस्करेति त्वष्टरभवस्तत्पनयद्वचो वः सत्यमो चर्नर एवाहि चक्रुरनुस्वधामृभवो जग्मुरेताम् विभ्राजमानांश्च मसाम् अहेवावे नत्वष्टा चतुरो ददृश्वान् द्वादशद्योऽन्यदगो ह्यस्यादिथ्येरणन् रभवः ससन्ताः सुक्षेत्रा गृण्वन्ननयन्त सिन्धोऽन्धन्वा तिष्ठन्नोषधेर्निम्नमावाह रथञ्ये चक्रुः सुवृतम् नरेष्ठाञ्ये धेनुम् विश्वजुवम् विश्वरूपाम् त आदक्षन्त्रभवो रजिन्नस्वपसस्वपसः सुहस्ताः अपोह्येषामजुषम् तदेवा अभिक्रत्वा मनसा दीध्यानाः वाजो देवानामभवत्सु कर्मेन्द्रस्य रुभुक्षा वरुणस्य विभ्वा ये हरे मेधयोक्था मदन्त इन्द्राय चक्रुः सुजुजाये अश्वा ते राजस्पोषम् द्रविणाञ्जस्मे धत्तरभवः क्षेमयन्तो न मित्रम् इदान्नः पीतिमुदवो मदन्धर्नरते श्रान्तस्य सख्याय देवाः ते नूनमस्मैरभवो वसो नितृतीये अस्मिन् सवने दधाता